एस रेडियो नेपालः सम्प्रति समाचारः श्रुयन्ताम् प्रवाचकः उपेन्द्र दाहालः। नेपाली कांग्रेस दलस्य अवशिष्टाधिवेशनानां षोडश जनपदानां जनपदाधिवेशनम् आगामिनः फाल्गुन मासस्य त्रयोदशी दिवसे भविता। नेपाली कांग्रेस दलस्य केन्द्रीय निर्वाचन समितेः ह्यस्तनोपवेशेन एतत्पूर्व माघमासस्य पञ्चदश दिवसाय निर्धारितं निर्वाचनं षोडश जनपदेषु फाल्गुनस्य त्रयोदशी दिवसे विधातुं निर्णीतमिति समितेः सचिवेन केशव रिजालेन ह्य प्रकाशितायं विज्ञप्तौ उल्लिखितं वर्तते। उपवेशेन सप्तरी, सिराहा, धनुषा, महोत्तरी, सर्लाई, रौतहट, बारा, पर्सा, सिन्धुली, मकवानपुर, सिन्धुपाल्चोक, चितवन, नवलपुर, बाँके, कैलाली, अछाम जनपदानां अधिवेशनम् फाल्गुनस्य त्रयोदशी दिवसे विधातुम् निर्णीतमिति विज्ञप्तौ उल्लिखितमस्ति। नेपाली कांग्रेस दलस्य केन्द्रीय कार्य सम्पादन समितेः बृहस्पतिवासरात् सञ्चल्यमाने उपवेशे ह्योऽपि समितेः सदस्याः स्वस्वधारणाम् उपास्थापयन्। दलसभापतेः प्रधानमन्त्रिणश्च शेरबहादुर देउवाविदस्य सभापतित्वे ललितपुरस्य सानेपावर्तिनी दलस्य केन्द्रीय कार्यालये उपविष्टे ह्यस्तनोपवेशे समितेः सदस्याः प्रकाशमान सिंह, कृष्णप्रसाद सिटौला, अर्जुन नरसिंह केसी, डाक्टर शेखर कोइराला, बालकृष्ण खाँड, ज्ञानेन्द्र बहादुर कार्की, सुजाता कोइराला, जीवन बहादुर साई च धारणाम् उपास्थापयन् इति दल कार्यालयस्य मुख्य सचिवेन कृष्ण प्रसाद पौडेलेन ह्य प्रकाशितायं विज्ञप्तौ उल्लिखितमस्ति। नेपाली कांग्रेस दलस्य केन्द्रीय कार्य सम्पादन समितेः उपवेश स्वफाल्गुनस्य प्रथमे दिवसे रविवासरे दिवा द्विवादने पुनः वस्तेति विज्ञप्तौ ज्ञापितमस्ति। प्रमुख निर्वाचन आयुक्त दिनेश कुमार थपलिया निगदति स्थानीय निर्वाचन संचालयितुं निर्वाचनाय साधारण जनान उत्प्रेरयितुं च संचार माध्यमानां भूमिका महत्वपूर्णा भवति। संचार सूचना प्रविधि मन्त्रालयस्य प्रेस काउन्सिल नेपाल संस्थायाः विज्ञापन समितेः चतुर्णामेव सार्वजनिक संचार माध्यमानां दूरसंचार सेवा प्रदायक संस्थानाञ्च प्रमुखैः सह सम्पन्ने विमर्शने प्रमुख निर्वाचन आयुक्त थपलिया अवदत् स्थानीय स्तराणाम् निर्वाचनम् स्वच्छम् स्वतन्त्रम् च विधातुम् निर्वाचने मतदातृणाम् सहभागिताम् वर्धयितुम् च निर्वाचन सम्बद्धाः समाचाराः सम्प्रेषणीयाः। विमर्शने उपस्थिताः विभिन्नानाम् संचार माध्यमानाम् प्रमुखाः प्रतिनिधयश्च निर्वाचनस्य सफलतायै स्रोतः साधनानाम् प्रयोगम् विधाय संचारस्य दायित्वम् प्रपूर्यते इति धारणाम् व्यक्तवन्तः। नेपाली कांग्रेस दलस्य प्रवक्ता डाक्टर प्रकाश शरण महत कथयति एमसीसी संविधान नहि सैन्य प्रयोजनाय अपितु नेपालस्य पूर्वाधार विकासाय आवश्यकी वर्तते। नेपाल प्रेस युनियन संगठनेन ह्य काष्ठमण्डपे आयोजिते कार्यक्रमे प्रवक्ता महत तात्कालिक लोकप्रियतायै राष्ट्रस्य हित विपरीताम् अभिव्यक्तिम् न व्यङ्क्तुम् सर्वान् पक्षान् अन्वरुणत्। स्वास्थ्य जनसंख्या मन्त्री विरोध खतिवडा कथयति कोरोना विषाणोः प्रतिरोधिनः टीकाकरणस्य चतुर्विंशतेः लक्षणां मात्राणां विलोपनस्य अपेक्षयापि तथ्याङ्काः न प्राप्ताः सन्ति। स्वेन मन्त्रिपदस्य कार्यभारवहनस्य शतदिनानां पूरणस्य अवसरे ह्य मन्त्रालये आयोजिते पत्रकार सम्मेलने मन्त्री खतिवडा एवम् अज्ञापयत्। विलुप्तानां टीकाकरणानां सम्बन्धे मन्त्रालयेन विशेषज्ञ प्रमुखस्य डाक्टर गुणराज लोहनी इत्यस्य संयोजकत्वे पञ्च सदस्यीयानुसन्धान समिति संघटितेति कारणेन शीघ्रमेव विलुप्तानां टीकाकरणानां विषये बोधयिष्यते इति च मन्त्री खतिवडा ज्ञापितवान्। मन्त्री खतिवडा आगामी वैशाख मासान्तं यावत् सर्वेभ्यो लक्षितजनेभ्य कोविड उनविंशतेः प्रतिरोधिनः टीकाकरणस्य पूर्णमात्रां प्रदातुं लक्ष्यं निर्धारितमिति असूचयत्। मन्त्री खतिवडा ज्येष्ठ नागरिकाणामेव उपचाराय ज्येष्ठ नागरिक चिकित्सालयः निर्मीयते इति च अबोधयत्। नेपाले कोरोना विषाणोः सक्रिय संक्रान्तानां जनानां संख्या न्यूनीभूय सप्तविंशतिः सहस्राणि एकचत्वारिंशदधिक शतचतुष्टयञ्च प्राप्तास्ति। ह्य आराष्ट्रं सहस्रे अष्टाविंशत्यधिक शते च जनेषु कोरोना संक्रमणं पुष्टिभूतं वर्तते। ह्य अतिरिक्ताः सहस्रद्वयं पञ्चदशाधिक शतद्वयञ्च जना कोरोना संक्रमणात् मुक्ताः सन्ति। संक्रमणेन ह्य आराष्ट्रम् अतिरिक्ताः चतुर्दश जनाः मृताः इति स्वास्थ्य जनसंख्या मन्त्रालयो ज्ञापयति। दाङ जनपदस्य तुलसीपुर वर्तिनी एकस्मिन् भण्डागारे ह्य अग्निदाहस्य कारणेन पञ्च जना मृताः सन्ति। मृतकेषु तुलसीपुर उपमहानगरपालिकायाः पञ्चम वडा क्षेत्रस्य चतुर्दश वर्षीय साजिता खातुन, चतुर्दश वर्षीय हसन बकस, षोडश वर्षीय मसिन बकस, चत्वारिंशत वर्षीय नअरदिन अली, षड वर्षीय आविद दिन अली च सन्तीति। तुलसीपुर स्थानीय प्रहरी कार्यालयस्य प्रमुख प्रहरी नायब उपरीक्षक श्याम अरियाल अज्ञापयत। अग्निदाहस्य अनुपदमेव उद्धारे विहिते सत्यपि अग्नि नियन्त्रणात् बहिः सम्भूतः आसीत्। विद्युतः व्ययमापनोपकरणस्य विस्फोटनात् अग्निदाह सम्भूतः इति प्रहरिणा ज्ञापितं वर्तते। नेकपा एकीकृत समाजवादी दलस्य अध्यक्षः माधव कुमार नेपालः भासते एमसीसी संविधायाः सन्दर्भे विचारणीयाः विषयाः अनेके वर्तन्ते इत्यतः सर्वं विस्मृत्य एमसीसी संविधा यथास्थितो पार्थिकर्तुं न शक्यते। पर्सा जनपदीयेन नेपाल प्रेस संघटनेन ह्यो वीरगंजस्थाने आयोजिते पत्रकार सम्मेलने अध्यक्षो नेपालः अवदत् एमसीसी संविधायाः विषये अधुनापि अध्ययनम् अपर्याप्तम् अस्ति, सुधारस्य च विषयः वर्तन्ते इत्यतः यथास्थितौ संविधेयं स्वीकर्तुं न शक्यते। प्रमुख प्रतिपक्षिणो नेकपा एमाले दलस्य अध्यक्ष केपी शर्मा ओली एमाले दलात् निर्वाचित प्रतिनिधिभिः प्रभावकारी कार्य सम्पादनं विहितम् अस्तीति निश्चिनोति। नेकपा एमाले दलस्य ह्य आयोजितं स्थानीय स्तर निर्वाचन पूर्व कार्य केन्द्रितं प्रशिक्षणाभिमुखीकरण कार्यक्रमं श्रव्यदृश्य प्रविधेर्माध्यमेन सम्बोधयन् अध्यक्षः ओली पर्याप्तानां संरचनानां अभावावस्थायामपि जनप्रतिनिधिभिः विहितं कार्यं प्रशंसनीयम् अस्तीति अवोचत। अध्यक्ष ओली स्थानीय स्तरस्य निर्वाचने कुत्रचित् सहकार्य विहितेऽपि राष्ट्रिय स्तरस्य निर्वाचने एमाले दलम् एकाकी निर्वाचनं योत्स्यतीति असूचयत्। प्रतिनिधि सभायाः विकास प्रविधि समित्या नारायणगढ़ बुटवल मार्गखण्डस्य कृते स्वीकृतस्य विस्तृता योजना प्रतिवेदनस्य विपरीततयः वृक्षाः कर्तिताः सन्तीति विषये अनुसन्धातुं भौतिक पूर्वाधार यातायात मन्त्रालयः निर्दिष्टोऽस्ति। समितेः ह्यसिम्ब प्रासादे उपविष्टेन उपवेशेन मार्गस्य भारवहन क्षमतातः अधिकानि वस्तूनि ऊढ्वा सीमा प्रवेशकानां वस्तुवाहक यानानां सीमा प्रवेश बिन्दौ अनिवार्यतया परीक्षणाय नीति गतां व्यवस्थां विधातुं प्रधानमन्त्री मन्त्री परिषद कार्यालयश्च निर्दिष्टो वर्तते। गृहमन्त्रिणा बालकृष्ण खाँड इत्यनेन सह गतदिने जनमत दलस्य उपाध्यक्ष नरेन्द्र चौधरी महासचिव चन्दन सिंहश्च मेलवार्तां कृतवन्तौ। गृहमन्त्रालये सम्पन्नायां तस्यां मेलवार्तायां आन्दोलने प्रहरिणा अपि गृहीतानां नेतृणाम् कार्यकर्तृणाम् च मुक्तये गृहमन्त्री खाँड अनुरुद्धः आसीत्। मेलने गृहमन्त्री खाँड अवदत् नागरिकाणाम् जीवनरक्षायै मौलिकाधिकाराणाम् अनुभावनाय च सर्वकारः प्रतिबद्धो वर्तते। कोरोना विषाणोः तृतीय लहर्या कारणेन माघमासस्य प्रथम सप्ताहात् पिदापितं पशुपतिनाथ मन्दिरं ह्यस्तन दिवसात् भक्तजनानां कृते उद्घाटितं वर्तते। काष्ठमण्डप जनपद प्रशासन कार्यालयस्य आदेशानुसारेण स्वास्थ्य मापदण्डान् परिपाल्य पूजायै ध्यानाय प्रार्थनायै च मन्दिरमिदम् उद्घाटितमस्ति इति समाचारः।